ॐ नमो भगवते वासुदेवाय। एकादशम् दशकम्। सनकादीनाम् वैकुण्ठप्रवेशवर्णनम्, जयविजयशापवर्णनम्, हिरण्यकशिपु हिरण्याक्ष उत्पत्तिवर्णनञ्च। क्रमेण सर्गे परिवर्धमाने कदापि दिव्यासनकादयस्ते भवद्विलोकाय विकुण्ठलोकम् प्रपेदिरे मारुतमन्दिरेश मनोज्ञनैश्रेयसकाननाद्यैः अनेकवापि मणिमन्दिरैश्च अनोपमं तं भवतो निकेतम् मुनीश्वराः प्रापुरतीतकक्ष्याः भवद्दिदृक्षून् भवनं विविक्षून् द्वास्थौ जयस्तान् विजयोऽप्यरुन्धाम् तेषाञ्च चित्ते पदमापकोपः सर्वं भवत्प्रेरणयैव भूमन् वैकुण्ठलोकानुचितप्रचेष्टौ कष्टौ युवां दैत्यगतिं भजेतम् इति प्रशप्तौ भवदाश्रयौ तौ हरिस्मृतिर्नोऽस्त्विति नेमतुस्तान् तदेतदाज्ञाय भवानवाप्तः सहैव लक्ष्म्या बहिरम्बुजाक्ष खगेश्वरां सार्पितचारुबाहुः आनन्दयं स्तानभिराममूर्त्या प्रसाद्यगीर्भिस्तुवतो मुनीन्द्रान् अनन्यनाथावथ पार्षदौ तौ संरम्भयोगेन भवैस्त्रिभिर्माम् उपेतमित्यात्तकृपम् न्यगादीः त्वदीयभृत्यावथ काश्यपातौ सुरारिवीराउदितौ दितौ द्वौ सन्ध्यासमुत्पादनकष्टचेष्टौ यमौ च लोकस्य यमाविवान्यौ हिरण्यपूर्वः कशिपुः किलैकः परो हिरण्याक्ष इति प्रतीतः उभौ भवन्नाथमशेषलोकम् रुषान्यरुन्धाम् निजवासनान्धौ तयोर्हिरण्याक्षमहासुरेन्द्रो रणाय धावन्ननवाप्तवैरी भवत्प्रियाम् क्ष्माम् सलिले निमज्य चचार गर्वाद्विनदन् गदावान् ततो जलेशात् सदृशम् भवन्तम् निशम्य बभ्रामगवेषयम् स्त्वाम् भक्तैकदृश्यः सकृपानिधे त्वम् निरुन्धिरोगान्मरुदालयेश निरुन्धिरोगान्मरुदालयेश। ॐ नमो भगवते वासुदेवाय।